एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। भारतस्य चतुर्दिवसीय भ्रमणे विद्यमानेन प्रधानमन्त्रिणा पुष्पकमल दाहाल प्रचण्डेन भारतस्य राष्ट्रपतिना द्रौपदी मुर्मू इत्यनया सह शिष्टाचार मेलवार्ता विहितास्ति। राष्ट्रपति भवने ह्य विहिते मेलने एतयोर्मध्ये द्विपक्षीय हितस्य विविध विषयेषु विमर्शनम् सम्भूतम् आसीत्। तदवसरे एतयोर्मध्ये नेपाल भारतयोः सम्बन्धस्य विभिन्नेषु आयामेषु विमृष्टमिति परराष्ट्र मन्त्रालयेन ज्ञापितम् वर्तते। प्रधानमन्त्रिणा दाहालेन ह्यैव भारतीयोपराष्ट्रपतिना जगदीप धनखड़ इत्यनेन सहापि शिष्टाचार मेलवार्ता विहिता वर्तते। उपराष्ट्रपति कार्यालये सम्पन्ने तस्मिन् मेलने अनयोर्मध्ये द्विपक्षीय हितस्य विविध विषयेषु विचार विमर्शो विहितो आस्ताम्। ह्यैव च प्रधानमन्त्रिणा दाहालस्य एतदीय समकक्षिणा नरेन्द्र मोदिना सह हैदराबाद भवने मेलवार्ता सम्भूता अस्ति। मेलवार्तायाः क्रमे विभिन्नाः सहमतयः विभिन्नेषु संविदासु हस्ताक्षराणि च विहितानि च सन्ति। प्रधानमन्त्री प्रचण्डः एतस्य समकक्षी भारतीय प्रधानमन्त्री मोदी च भारतस्य बथनाहतः विराटनगरस्य बुद्धनगर पार्यन्तिकम् रेलयानसेवाम् संयुक्त रूपेण प्रारभेताम्। हैदराबाद भवनात् देशद्वयस्य उभौ प्रधानमन्त्रिणौ हरितध्वजम् प्रदर्श्य वस्तुवाहक रेलयानसेवाम् प्रारब्धवन्तौ। एवमेव नेपाल भारतयोर्मध्ये विद्युत व्यापारस्य कृते वैद्युत व्यापारस्य कृते महत्वपूर्णायाः नवीन बुटवल गोरखपुरान्तरदेशीय विद्युत प्रसारण प्रणाल्याः शिलान्यासञ्च उभौ प्रधानमन्त्रिणौ कृतवन्तौ। विद्युत प्रसारण प्रणालीयम् उच्चक्षमतायाः द्वितीयान्तरदेशीय प्रसारण प्रणाली वर्तते। ह्यैव प्रधानमन्त्रिणः प्रचण्डस्य सम्माने भारतीय प्रधानमन्त्रिणा मोदिना दिवाभोजः आयोजितः आसीत्। ह्य प्रधानमन्त्री प्रचण्ड नयाँ दिल्ली स्थितं राजघाटं प्राप्य महात्मा गान्धिनः समाधिस्थले पुष्पाणि अर्पयत्। नेपाल भारतयोर्मध्ये अन्तर्देशीय वैद्युत प्रदेय वित्त सम्बद्धायाम् संविधायाम् हस्ताक्षराणि विहितानि सन्ति। प्रधानमन्त्रिणः पुष्पकमल दाहाल प्रचण्डस्य भारतस्य भ्रमणस्य क्रमे नेपाल क्लियरिङ हाउस वित्तीय संस्थायाः भारतस्य एनपीसीआई वित्तीय संस्थायाश्च मध्ये सहमतिपत्रे हस्ताक्षराणि विहितानि वर्तन्ते। सहमतिपत्रे नेपाल क्लियरिङ हाउस वित्तीय संस्थायाः प्रमुख कार्यकारी अधिकृतः निलेशमान प्रधान, एनपीसीआई नाम्न्यः भारतीय वित्तीय संस्थायाः प्रमुख कार्यकारी अधिकृतः रितेश शुक्ला च संविधायाम् हस्ताक्षराणि विहितवन्तौ। सहमतेः पश्चात् भारते अध्ययनाय उपचाराय च प्राप्तेभ्यः जनेभ्यः सहजतया व्यवसायाय प्रदेय वित्तस्य अर्पणाय च मार्ग प्रशस्ति भूतोऽस्ति। सीमावर्तिनः भारतस्य कटिहार जनपदस्य बथनाः स्थानात् विराटनगरस्य बुद्धनगरम् यावत् वस्तुवाहक रेलयानसेवा सञ्चालिता वर्तते। भारतभ्रमणे विद्यमानेन प्रधानमन्त्रिणा पुष्पकमल दाहाल प्रचण्डेन स्वस्य समकक्षिणा नरेन्द्र मोदिना च संयुक्त रूपेण नयाँ दिल्ली स्थानात् हरितध्वजम् प्रदर्श्य अस्याः सेवायाः उद्घाटनानन्तरम् बथनाः स्थानात् प्रस्थितम् रेलयानम् 8 किलोमीटर मितायाम् दूर्याम् विद्यमानम् विराटनगरस्य बुद्धनगरस्य यानविश्रान्तिस्थलम् प्राप्तम् आसीत्। बथनाः स्थानात् विराटनगरस्य बुद्धनगरवर्तिनी एकीकृत सीमा प्रवेश शुल्क कार्यालयम् यावत् रेलयान सेवा सञ्चालिता वर्तते। वस्तुवाहक रेलयान सेवायाः सञ्चालनानन्तरम् उद्योगपतयः, व्यापारिणः, सर्वसाधारणाश्च प्रसन्नाः वर्तन्ते। अत्रान्तरे भारतीय प्रधानमन्त्रिणा नरेन्द्र मोदिना भारत नेपालयोः धार्मिक सांस्कृतिकश्च सम्बन्धः अति प्राचीनः घनिष्ठश्चास्तीति उक्तं वर्तते। भारतस्य औपचारिक भ्रमणे विद्यमानेन प्रधानमन्त्रिणा पुष्पकमल दाहाल प्रचण्डेन सह मेलवार्तायाः पश्चात् ह्य आयोजिते संयुक्त पत्रकार सम्मेलने प्रधानमन्त्री मोदी भारत नेपालयोः सम्बन्धाय हिमालय सदृशाम् उच्चताम् प्रदातुम् आत्मना सदा प्रवर्त्यते इत्युक्तवान्। अस्या एव भावनायाः अनुसारेण सीमायाः अन्य वा सर्वे विषयाः समाधास्यन्ते इति भासमाणः प्रधानमन्त्री मोदी सुमधुरम् सम्बन्ध ममुम अतिरिक्तम प्रगाढम विधातुम प्रधानमन्त्रिणा दाहालेन आत्मना च रामायण परिपथेन सम्बद्धाम परियोजनाम तीव्रगत्या अग्रे वर्धयितुम ईप्सितम वर्तते इति असूचयत। नववर्षेभ्य पूर्वं चतुर्दशाधिक द्विसहस्रतमे ख्रीष्टवर्षे आत्मना प्रधानमन्त्री पदे पदासीनतायाः मासत्रयस्य अभ्यन्तरे एव नेपालस्य प्रथमं विहितं भ्रमणं स्मरन् असौ अगदत्। नववर्षेषु देशद्वयस्य मध्ये अनेकेषु क्षेत्रेषु नैकाः उपलब्धयः अधिगताः सन्ति। भारतीय प्रधानमन्त्री मोदी अवोचत् वीरगंजस्थाने नेपालस्य प्रथमं एकीकृत सुरक्षा केन्द्रम् भारत नेपालयोर्मध्ये प्रथमा अन्तर्देशीय शिलातैल्य नलिका प्रणाली च निर्मिते स्तः। नेपालात् 50+400 मेगावाट मितायः विद्युतः आयातश्च विद्यमानो वर्तते। प्रधानमन्त्री मोदी अगदत् नेपाल भारतयोर्मध्ये पारवहन संविधा सम्पन्नास्ति एतस्याः अन्तर्गतम् नेपालीभ्य नूतन रेलमार्गेण सह भारतस्य जलमार्गस्य च सौविध्यम् प्राप्तं वर्तते। प्रधानमन्त्री मोदी अवासत नेपाल भारतयोर्मध्ये ऊर्जो व्यापार संविधा सम्पन्नास्ति एतस्याः अन्तर्गतम् आगामिषु 10 वर्षेषु नेपालात् 10,000 मेगावट मितायः विद्युतः आयातस्य लक्ष्यम् भारतेन निर्धारितमस्ति। प्रधानमन्त्री मोदी सिलगढ़ी स्थानात् झापा जनपदम् यावत् अतिरिक्ता शिला तैलीय नलिका प्रणाली निर्मीयमाणा वर्तते। चितवन झापा जनपदयोः तैल भण्डारण स्थलम् निर्माष्यमानम् अस्तिति च ज्ञापयन् नेपाले रासायनिक मलोद्योगम् निर्मातुम् देशद्वयस्य पारस्परिक सहयोगाय सहमति धृतास्तीति च असूचयत्। संयुक्त पत्रकार सम्मेलनम् सम्बोधयन् प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्ड अगदत् भारत नेपालस्य निकटस्थ विकास समृद्ध्यो प्रमुख सहयोगी वर्तते। प्रधानमन्त्री प्रचण्ड अवासत नेपाल भारतयोः सम्बन्धः शताब्दितः सामाजिके सांस्कृतिके च सुदृढे आधारे बहुआयामिक रूपेण विद्यमानो वर्तते। भारतः नेपालस्य निकटस्थ विकास समृद्ध्यो सहयोगी वर्तते इति भाषमाणः प्रधानमन्त्री दाहाल नेपाल 27+2000 ख्रीष्टवर्षम् यावत् अतिन्यून विकसित राष्ट्रात् स्तरोन्नते क्रमे वर्तते इत्यतः भारतस्य नैरन्तर्येण सहयोगम् अपेक्षत। तदवसरे प्रधानमन्त्री दाहाल भारतीय प्रधानमन्त्रिणे नरेन्द्र मोदिने नेपालस्य सौहार्दपूर्णाय भ्रमणाय निमन्त्रणाम् प्रददत्। नेपाले स्वागताय आत्मनः व्याकुलतास्तीति व्याहरत्। प्रत्यायोजित व्यवस्थापन सर्वकारी आश्वासन समित्या राष्ट्रियाभिलेखालयस्य व्यवस्थापनस्य विषये विमर्शनाय सम्बद्ध मन्त्रालयान् आह्वातुम् निर्णीतम् अस्ति। समितेः ह्यौपविष्टेन उपवेशेन राष्ट्रियाभिलेखालयस्य प्रमुखेण सह विमर्शनस्य पश्चात् राष्ट्रियाभिलेखस्य व्यवस्थापनस्य सुरक्षायाश्च सम्बन्धे संस्कृति पर्यटन नागरिकोड्डयन मन्त्रालयम् परराष्ट्र मन्त्रालयम् विधि न्याय संसदीय विषय मन्त्रालयम् च आहूय विमर्शतुम् निर्णीतमस्ति। उपवेशे सदस्यैः राष्ट्रियाभिलेखस्य सुरक्षायै राज्येन प्राथमिकता न प्रदत्तेति उक्त्वा सम्बद्ध मन्त्रालयान् आहूय एव विमर्शव्यमिति धारणा व्यक्ता आसीत्। नेकपा एमाले दलस्य सचिवालयोपवेश अद्य पूर्वाह्नस्य 11 वादनाय आहूतो वर्तते। ललितपुरस्य च्यासल स्थिते दलस्य मुख्यालये उपविश्यमाने उपवेशेऽस्मिन् सामयिक राजनीतिकावस्थाया दलस्य आन्तरजीवनस्य च विषयेषु विमृश्यते इति एमाले दलस्य उपमहासचिव विष्णु रिमालः अज्ञापयत्। नेपाली मुस्लिम धर्मावलम्बिनः हज यात्रायै सौदी अरबदेशस्य पवित्र तीर्थस्थलम् मक्का मदीना स्थानम् प्रति ह्यस्तन दिवसात् प्रस्थानक्रमः आरब्धो वर्तते। हजयात्रा समिते काष्ठमण्डपवर्तिन सचिवालयस्य अनुसारेण त्रिभुवनान्तर्राष्ट्रिय विमानस्थलात् साउदी अरब देशस्य मक्का मदीना स्थानम् प्रति प्रथमचरणे ह्य 67+2 जना हजयात्रिण प्रस्थिता वर्तन्ते। काष्ठमण्डप महानगरपालिकया 32 वडा क्षेत्रेषु निवसद्भ्य ज्येष्ठ नागरिकेभ्य निःशुल्कम् स्वास्थ्य सेवा प्रदीयते। काष्ठमण्डप महानगरपालिकाया छत्रपाटी निःशुल्क चिकित्सालयस्य च मध्ये विहिताया संविधाया अनुसारेण महानगरस्य आभ्यन्तरेभ्य 70 वर्षाणि व्यतिक्रान्तेभ्य ज्येष्ठ नागरिकेभ्य छत्रपाटी चिकित्सालयेन सर्वाम् स्वास्थ्य सेवाम् निःशुल्कम् प्रदातुम् सहमति धृतास्तीति महानगरस्य प्रमुख बालेन शाह अज्ञापयत् इति समाचाराः।